मुकुंदमाला स्तोत्र। श्रीवल्लभेति वरदेति दयापरेति भक्तप्रियेति भवलुण्ठनकोविदेति नाथेति नागशयनेति जगन्निवासेति आलापिनं प्रतिदिनं कुरु मां मुकुन्द। जयतु जयतु देवो देवकी नन्दनोऽयं जयतु जयतु कृष्णो वृष्णिवंशप्रदीपः जयतु जयतु मेघश्यामलः कोमलाङ्गो जयतु जयतु पृथ्वी भारनाशो मुकुन्दः। मुकुन्दमूर्ध्ना प्रणिपत्ययाचे भवन्तम् एकान्तम् इयन्तम् अर्थम् अविस्मृतिस्त्वत् चरणारविन्दे भवे भवे मेस्तु भवत्प्रसादात्। नाहं वन्दे तव चरणयोर्द्वन्द्वमद्वन्द्वहेतोः कुम्भीपाकं गुरुमपि हरे नारकं नापनेतुम्। रम्या रामा मृदुतनुलता नन्दनेनापिरन्तुं भावे भावे हृदयभवने भावयेयं भवन्तम्। नास्थाधर्मे न वसुनिचये नैव कामोपभोगे यद्भाव्यं तद् भवतु भगवन् पूर्वकर्मानुरूपम्। एतत् प्रार्थ्यं मम बहुमतं जन्मजन्मान्तरेऽपि त्वत्पादाम्बोरुहयुगगता निश्चला भक्तिरस्तु। दिवि वा भुवि वा ममास्तु वासो नरके वा नरकान्तकप्रकामम् अवधीरितशारदारविन्दौ चरणौ ते मरणेऽपि चिन्तयामि चिन्तयामि हरिमेव सन्ततं मन्दहासमुदिताननाम्बुजं नन्दगोपतनयं परात्परम् नारदादिमुनिवृन्दवन्दितम्। करचरणसरोजे कान्तिमन्नेत्रमीने श्रममुषिभुजविचि व्याकुले गाधमार्गे हरिसरसि विगाह्या पीयतेजोजलौघम्। भवमरुपरि खिन्नः क्लेशमद्य त्यजामि सरसिजनयने सशङ्खचक्रे मुरभिधिमा विरमस्वचित्तरन्तुं सुखतरमपरं न जातु जाने हरिचरणस्मरणामृतेन तुल्यम्। माभिर्मन्दमनो विचिन्त्य बहुधा यामिश्चिरं यातना नैवामी प्रभवन्ति पापरिपवः स्वामी ननु श्रीधर। आलस्यं व्यपनीयभक्तिसुलभं ध्यायस्वनारायणम् लोकस्य व्यसनापनोदनकरो दासस्य किं न क्षमः भवजलदिगतानां द्वन्द्ववाताहतानां सुतदुरितकलत्र त्राणभारार्दितानां विषमविषयतो ये मज्जताम् अप्लवानां भवति शरणमेको विष्णुपोतो नराणां भवजलदिम् अगाधं दुस्तरं निस्तरेयं कथम् अहम् इति चेतो मा स्म गाः कातरत्वं सरसिजदृशि देवे तारकी भक्तिरेका नरकभिधि निषण्णा तारयिष्यत्यवश्यम् तृष्णातो ये मदनपवनोद्धूतमोहोर्मिमाले दारावर्ते तनय सहज ग्राहसङ्घाकुले च संसाराख्ये महति जलधौ मज्जतां न स्त्रिधामम् पादाम्भोजे वरद भवतो भक्तिनावं प्रयच्छ पृथ्वीरेणुरणुपयांसि कणिकाः फल्गुः स्फुलिङ्गो लघुस् तेजो निःश्वसनं मरुत्तनुतरं रन्ध्रं सुसूक्ष्मं नभः क्षुद्रारुद्रपितामह प्रभृतयः कीटा समस्तासुरा दृष्टे यत्र स तारको विजयते श्रीपादधूलिकणः हे लोकाश्रुणुत प्रसूतिमरण व्यादेश्चिकित्सामिमां योगज्ञा समुदाहरन्ति मुनयो यां याज्ञवल्क्यादयः अन्तर्ज्योतिरमेयमेकमृतं कृष्णाख्यमापीयतां तत्पीतं परमौषधं वितनुते निर्वाणम् आत्यन्तिकम् हे मर्त्या परमं हितं शृणुतवो वक्ष्यामि संक्षेपतः संसार आर्णवम् आपद् ऊर्मि बहुलं सम्यक् प्रवेश्य स्थिताः नानान्यानमपास्य चेतसि नमो नारायणायेत्यमुम् मन्त्रं स प्रणवं प्रणामसहितं प्रावर्तयद्वं मुहुः नाथेन पुरुषोत्तमे त्रिजगताम् एकाधिपे चेतसा सेव्ये स्वस्य पदस्य दातरि परे नारायणे तिष्ठति यं कञ्चित् पुरुषाधमं कतिपय ग्रामेशमल्पार्थदं सेवायै मृगयामहे नरमहो मूढा वराका वयम् बद्धेनाञ्जलिना नतेन शिरसा गात्रै सरोमोद्गमैः कण्ठेन स्वरगद्गदेन नयनोद्गीर्ण भाष्पाम्बुना नित्यं त्वच्चरणारविन्दयुगल ध्यानामृतास्वादिनाम् अस्माकं सरसीरुहाक्षसततं संपद्यतां जीवितम्।
यद्कृष्ण प्रणिपात धूलिधवलं तद्वर्ष्म तद्वै शिरस् ते नेत्रे तमसोज्झिते सुरुचिरे याभ्याम हरिर्दृश्यते। सा बुद्धिर्विमलेन्दु शंख धवला या माधव ध्यायिनी सा जिह्वामृत वर्षिणी प्रतिपदं यास्तौति नारायणम्। जिह्वे कीर्तय केशवं मुररिपुं चेतो भज श्रीधरं पाणिद्वन्द्वसमर्चयाच्युतकथाः श्रोत्रद्वयत्वं शृणु। कृष्णं लोकय लोचनद्वयहरेर्गच्छाङ्घ्रियुग्मालयम् जिघ्रघ्राणमुकुन्दपादतुलसीं मूर्धन्नमाद्दोक्षजम्। आम्नायाभ्यसनान्यरण्यरुदितं वेदव्रतान्यन्वहम् मेदश्छेद फलानि पूर्त विधय सर्वं हुतं भस्मने। तीर्थानां अवगाहनानि च गज स्नानं विना यत्पद। द्वन्द्वाम्भोरुह संसृतिं विजयते देवस नारायणः। मदन परिहर स्थितिं मदीये मनसि मुकुन्द पदारविन्द धाम्नी। हर नयन कृशानुनाकृशोऽसि स्मरसि न चक्र पराक्रमं मुरारेः। नाथे धातरि भोगि भोगशयने नारायणे माधवे। देवे देवकी नंदने सुरवरे चक्रायुधे शार्ङ्गिणी। लीलाशेष जगत् प्रपंच जठरे विश्वेश्वरे श्रीधरे। गोविंदे कुरुचित्त वृत्तिमचलाम् अन्यैस्तु किं वर्तनैः। माद्राक्षं क्षीण पुण्यान् क्षणम् अपि भवतो भक्तिहीनान् पदाब्जे। माश्रौषं श्राव्यबन्धम् तव चरितमपास्यान्यद् आख्यानजातम्। मा स्मार्षं माधव त्वाम् अपि भुवनपते चेतसापह्नुवानान्। मा भूवं त्वद् सपर्याव्यतिकररहितो जन्म जन्मान्तरेऽपि। मज्जन्मन फलमिदं मधुकैटभारे मद्प्रार्थनीयमदनुग्रह एष एव। त्वद्भृत्य भृत्य परिचारक भृत्य भृत्य भृत्यस्य भृत्य इति मां स्मरलोकनाथ। तत्त्वं ब्रुवाणानि परम्परस्तान् मधुक्षरन्तीव मुदावहानि। प्रावर्तय प्राञ्जलिरश्मि जिह्वे नामानि नारायण। नमामि नारायण पादपङ्कजं करोमि नारायण पूजनं सदा। वदामि नारायण नाम निर्मलम् स्मरामि नारायण तत्त्वमव्ययम्। श्रीनाथ नारायण वासुदेव श्रीकृष्ण भक्त प्रिय चक्रपाणे श्रीपद्मनाभाच्युत कैठभारे श्रीराम पद्माक्ष हरे मुरारे अनंत वैकुंठ मुकुंद कृष्ण गोविंद दामोदर माधवेति वक्तुं समर्थोऽपि न वक्ति कश्चित् अहो जनानां व्यसनाभिमुख्यम् भक्तापाय भुजांग गारुडमणिस् त्रैलोक्य रक्षामणिर् गोपी लोचन चातकाम्बुदमणि सौंदर्यमुद्रामणि यकांतामणि रुक्मिणी घनकुच द्वंद्वैकभूषामणि श्रेयो देवशिखामणिर् दिशतु नो गोपालचूडामणि शत्रुछेदैकमन्त्रम् सकलम् उपनिषदवाक्यसम्पूज्यमन्त्रम् संसारोच्छेदमन्त्रम् समुचिततमस सङ्घनिर्याणमन्त्रम् सर्वैश्वर्यैकमन्त्रम् व्यसनभुजग सन्दष्टसन्त्राणमन्त्रम् जिह्वे श्रीकृष्णमन्त्रम् जप जप सततम् जन्मसाफल्यमन्त्रम् व्यामोहप्रशम औषधम् मुनिमनो वृत्तिप्रवृत्तौषधम् दैत्येन्द्रार्तिकरौषधम् त्रिभुवने सञ्जीवनैकौषधम् भक्तात्यन्तहितौषधम् भवभय प्रध्वंशनैकौषधम् श्रेयप्राप्तिकरौषधम् पिब मना श्रीकृष्णदिव्यौषधम् कृष्णत्वदीयपदपङ्कजपञ्जरान्तम् अद्यैव मे विशतु मानस राजहंस प्राणप्रयाणसमये कपवातपित्तैः कण्ठावरोधनविधौ स्मरणं कुतस्ते चेतश्चिन्तय कीर्तय स्वरसने नम्री भव त्वं शिरो हस्तौ अञ्जलि सम्पुटं रचयतं वन्दस्वदीर्घं वपु आत्मन् संश्रय पुण्डरीकनयनं नागाचलेन्द्रस्थितं धन्यं पुण्यतमं तदेव परमं दैवं हि सत्सिद्धये शृण्वन् जनार्दन कथा गुणकीर्तनानि देहेन यस्य पुलकोद्गमरोमराजी नोत्पद्यते नयनयोर्विमलाम्बुमाला धिक्तस्य जीवितमहो पुरुषाधमस्य अन्धस्य मेरितविवेकमहाधनस्य चौरै प्रभो बलिभिरिन्द्रियनामधेयैः मोहान्धकूपकुहरे विनिपातितस्य देवेश देहि कृपणस्य करावलम्बम् इदं शरीरं परिणामपेशलं पतत्यवश्यं शतसन्धिजर्जरं किम् औषधं पृच्छसि मूढदुर्मते निरामयं कृष्णरसायनं पिब आश्चर्यमेतद्धि मनुष्यलोके सुधां परित्यज्य विषं पिबन्ति नामानि नारायणगोचराणि त्यक्त्वान्यवाच कुहका पठन्ति त्यजन्तु बान्धवा सर्वे निन्दन्तु गुरवो जनाः तथापि परमानन्दो गोविन्दो मम जीवनम्
सत्यं ब्रवीमि मनुजा स्वयमूर्ध्वबाहो यो यो मुकुन्द नरसिंह जनार्दनेति जीवो जपत्यनुदिनं मरणेरणे वा पाषाणकाष्ठसदृशाय ददात्यभीष्टम्। नारायणाय नम इत्यमुमेव मन्त्रम् संसार घोर विष निर्हरणाय नित्यम् शृण्वन्तु भव्य मतयो यतयो नुरागात् उच्चैस्तरामुपदिशाम्यहमूर्ध्वबाहो चित्तं नैव निवर्तते क्षणमपि श्रीकृष्णपादाम्बुजान् निन्दन्तु प्रियबान्धवा गुरुजना गृह्णन्तु मुञ्चन्तु वा दुर्वादं परिघोषयन्तु मनुजा वंशे कलङ्कोऽस्तु वा तादृक्प्रेमधरानुरागमधुना मत्तायमानं तु मे। कृष्णो रक्षतु नो जगत्त्रय गुरु कृष्णं नमध्वं सदा कृष्णेनाखिलशस्त्रवो विनिहता कृष्णाय तस्मै नमः। कृष्णादेव समुत्थितं जगदिदं कृष्णस्य दासोऽस्म्यहम्। कृष्णे तिष्ठति विश्वम् एतद् अखिलं हे कृष्ण रक्षस्व माम्। हे गोपालक हे कृपा जलनिधे हे सिन्धुकन्यापते हे कंसान्तक हे गजेन्द्र करुणा पारीण हे माधव। हे रामानुज हे जगत्त्रय गुरो हे पुण्डरीकाक्षमाम्। हे गोपी जननाथ पालय परं जानामि न त्वां विना। दारावारा करवरसुता ते तनुजो विरिञ्चि स्तोता वेदस्तव सुरगणा भृत्यवर्गप्रसादः। मुक्तिर्माया जगद् अविकलं तावकी देवकी ते माता मित्रं बलरिपुसुतस्तत्त्वदन्यं न जाने। प्रणामं ईशस्य शिरःफलं वेदुः तदर्चनं प्राणफलं दिवौकसः। मनःफलं तद्गुणतत्त्वचिन्तनं वच फलं तद् गुणकीर्तनं बुधाः। श्रीमन्नाम प्रोच्य नारायणाख्यं केन प्रापुर्वाञ्छितं पापिनोऽपि हानपूर्वं वाक् प्रवृत्ता न तस्मिं तेन प्राप्तं गर्भवासादिदुःखम्। ध्यायन्ति ये विष्णुमनन्तमव्ययं हृत्पद्ममध्ये सततं व्यवस्थितं समाहितानां सतताभयप्रदम् ते यान्ति सिद्धिं परमां तु वैष्णवीम्। तत्त्वं प्रसीद भगवन् कुरु मय्यनाथे विष्णो कृपां परमकारुणिकः खलु त्वं संसारसागरनिमग्नमनन्तदीनम् उद्धर्तुम् अर्हसि हरे पुरुषोत्तमोऽसि। क्षीरसागरतरङ्गशिखरा सारतार कितचारुमूर्तये भोगि भोगशयनीयशायिने माधवाय मधु विद्विषे नमः। अलम् अलम् अलमेका प्राणिनां पातकानां निरसन विषयेया कृष्ण कृष्णेति वाणी यदि भवति मुकुन्दे भक्ति आनंद सांद्रा करतल कलितासा मोक्ष साम्राज्य लक्ष्मी यस्य प्रियो श्रुतिधरो कविलो कवीरो मित्रो द्विजन्म वर पद्म शरौ अभूताम् तेनाम्बुजाक्षचरणाम्बुजसर्पदेन राज्ञा कृता कृतिरियं कुलशेखरेण मुकुन्दमालां पठतां नराणाम् अशेषसौख्यं लभते न कस्वित् समस्त पाप क्षयमेत्य देहि प्रयाति विष्णो परमं पदं तत्।